क्षेमं सर्व प्रजानां प्रभवतु बलवान् धार्मिको भूमिपालः काले काले च सम्यक् वर्षतु मघवान् व्याधयो यान्तु नाशम् दुर्भिक्षम् सोरमारीचनमपि जगदाम् अस्मभूजीवलोके जैनेन्द्रम् धर्मचक्रम् प्रभवतु सततम् सर्वसौख्यप्रदायी।